ये त्वक्षरमनिर्देश्यम्
अव्यक्तं पर्युपासते
सर्वत्र गमचिन्त्यं च
कूटस्थमचलं ध्रुवम्।